द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः व्यक्तः व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु.
द्रव इति त्वमित्यनुषज्यते. हे भगवन्, त्वं द्रवः सरित्समुद्रादिवद्रसात्मकोऽसि. सङ्घातेन निबिडसंयोगेन कठिनः महीधरादिवत्, स्थूलः इन्द्रियग्रहणयोग्यः घटादिवत्, सूक्ष्मः अतीन्द्रियः परमाण्वादिवत्, लघुः उत्पतनयोग्यः तूलादिवत्, गुरुः हेमाद्रिवत् अचलनीयः, व्यक्तः कार्यरूपोऽसि, व्यक्तेतरः कारणरूपश्चासि. एवं विभूतिषु अणिमादिषु ते तव प्रकामस्य भावः प्राकाम्यं यथाकामत्वम्.
उद्घातः प्रणवो यासाम् न्यायैस्त्रिभिरुदीरणम् कर्म यज्ञः फलम् स्वर्गः तासाम् त्वम् प्रभवो गिराम्.
उद्घात इति हे भगवन्, यासाम् गिराम् वाचाम् उद्घातः उपक्रमः प्रणवः ओङ्कारात्मकः. ओङ्कारप्रणवौ समौ इति स्यादभ्यादानमुद्घात आरम्भः इति च अमरः. इदम् उपसंहारस्यापि उपलक्षणम्. ब्रह्मणः प्रणवम् कुर्यात् आदावन्ते च सर्वतः दहत्येनः कृतम् पूर्वम् परस्ताच्च विशेषतः इति निरुक्तपरिशिष्टयोः यास्कः. नीयन्ते एभिः अर्थविशेषाः इति न्यायाः स्वराः. उक्तम् च स्वरविशेषादर्थप्रतिपत्तिः इति. यथेन्द्रशत्रुः स्वरतोपराधात् इति. यासाम् गिराम् त्रिभिः न्यायैः उदात्तानुदात्तस्वरितैः स्वरैः उदीरणम् उच्चारणम् यासाम् कर्म प्रतिपाद्यमित्यर्थः. यज्ञो ज्योतिष्टोमादिः न तु चैत्यवन्दनादिरिति भावः. फलम् स्वर्गः कर्मद्वारेति शेषः. कर्मस्वर्गौ ब्रह्मापवर्गयोः अपि उपलक्षणे त्वम् तासाम् गिराम् वेदानामित्यर्थः. प्रभवति अस्मादिति प्रभवः कारणम् प्रणेता स्मर्ता वा मतभेदेन. साङ्ख्यमतेन स्तुवन्ति.
त्वाम् आमनन्ति प्रकृतिम् पुरुषार्थप्रवर्तिनीम् तद्दर्शिनमुदासीनम् त्वामेव पुरुषम् विदुः.
त्वामिति हे भगवन्, त्वाम् पुरुषस्य अर्थः भोगापवर्गरूपः तदर्थम् प्रवर्तत इति पुरुषार्थप्रवर्तिनी ताम् प्रकृतिम् त्रैगुण्यात्मकम् मूलकारणम् प्रकृतिः पञ्चभूतेषु प्रधानम् मूलकारणम् इति यादवः. आमनन्ति कथयन्ति. म्ना अभ्यासे इति धातोः लट्, प्राघ्राध्मास्थाम्ना इत्यादिना मनादेशः. प्रकृतिपुरुषभेदाग्रहणात् प्रकृतिपुरुषाभेदव्यपदेशः. त्वामेव ताम् प्रकृतिम् साक्षित्वेन पश्यतीति तद्दर्शिनम् उदासीनम् कूटस्थम् पुरुषम् विदुः विदन्ति. विदो लटो वा इति झेर्जुसादेशः. अजामेकाम् लोहितशुक्लकृष्णाम् इति श्रुतिरत्र प्रमाणम्.
त्वम् पितॄणामपि पिता देवानामपि देवता परतोऽपि परश्चासि विधाता वेधसामपि।
त्वमिति हे भगवन् त्वं पितॄणाम् अग्निष्वात्तादीनाम् अपि पिता तेषामपि तर्पणीयः इत्यर्थः। देवानाम् इन्द्रादीनाम् अपि देवता तेषामपि यजनीय इत्यर्थः। परतोऽपि परश्चासि सर्वोत्तरोऽसीत्यर्थः। इन्द्रियेभ्यः पराह्यर्थाः अर्थेभ्यश्च परम् मनः। मनसश्च परा बुद्धिः। बुद्धेरात्मा महान् परः। महतः परमव्यक्तम् अव्यक्तात् पुरुषः परः। पुरुषान्न परम् किञ्चित् सा काष्ठा सा परा गतिः इति सर्वोत्तरत्वाभिधानात्। वेधसाम् दक्षादीनाम् अपि विधाता स्रष्टा असि।
त्वमेव हव्यम् होता च भोज्यम् भोक्ता च शाश्वतः। वेद्यम् च वेदिता चासि ध्याता ध्येयम् च यत्परम्।
त्वमेवेति शश्वत् सिद्धः शाश्वतः शैशिकः अण्प्रत्ययः। यद्यपि कालाट्ठञ् इति ठयपवादः। अत एव सूत्रकारस्यापि प्रयोगः एषाञ्च विरोधः शाश्वतिकः इति। तथापि प्रयोगवशात् साधुरिति वामन इति। शाश्वतः शश्वत् प्रयुक्तः शाश्वतः त्वमेव। हूयते इति हव्यम् हविः आज्यादिकम्। जुहोतीति होता यजमानश्च असि। भोज्यम् अभ्यवहार्यम् अन्नम्। भोज्यम् भक्ष्ये इति निपातनात् कुत्वाभावः। भोक्ता अन्नादश्च असि। वेद्यम् साक्षात् कार्यम् वस्तु। वेदिता साक्षात्कर्ता च असि। ध्याता स्मर्ता च। यत्परम् वस्तु ध्येयम् तच्च असि। साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम्।
इति तेभ्यस्तुती श्रुत्वा यथार्थाः हृदयङ्गमाः प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः।
इति वेधाः ब्रह्मा इति तेभ्यः देवेभ्यः। आख्यातोपयोगे इत्यपादानत्वात् पञ्चमी। यथार्थाः सत्याः अत एव हृदयम् गच्छन्तीति हृदयङ्गमाः मनोहराः। खच् प्रकरणे गमेस्सुप्युपसङ्ख्यानम् इति खच् प्रत्ययः। अरुर्द्विषदजन्तस्य मुम् इति मुमागमः। स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखः अनुग्रहप्रवणः सन् दिवौकसः देवान् प्रत्युवाच। अथ कविराः।
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता प्रवृत्तिरासीच्छब्दानाम् चरितार्था चतुष्टयी।
पुराणस्येति द्रव्यगुणक्रियाजातिभेदेन चत्वारः अवयवाः यस्याः इति चतुष्टयी चतुर्विधा। सङ्ख्याया अवयवे तयप् इति तयप्। टिड्ढाणै द्वयसच् इत्यादिना ङीप्। शब्दानाम् प्रवृत्तिः वैखरी प्रमुखा वाग्वृत्तिः। उक्तम् च वैखरी शब्दनिष्पत्तिः मध्यमा श्रुतिगोचरा द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी इति। पुराणस्य पुरातनस्य पृषोदरादित्वात् साधुः। कवेः कवयितुः तस्य ब्रह्मणः चतुर्भिः मुखैः समीरिता सति। तद्धितार्थ इत्यादिना उत्तरपदसमासः समाहारे चतुर्मुखीति स्यात् चरितार्था अन्वर्था आसीत् चतुर्मुखोच्चारणात् चातुर्विध्यं सफलमासीदित्यर्थः भगवान् आह
स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्यवः युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः
स्वागतमिति हे प्राज्यविक्रमाः प्रभूतपराक्रमाः देवाः प्राज्यं भूरि प्रभूतञ्च इति यादवः स्वान् स्वकीयान् अधिकारान् नियोगान् उपसर्गस्य घञि इति वा दीर्घः प्रभावैः सामर्थ्यैः अवलम्ब्य आस्थाय यथाधिकारं स्थित्वापीत्यर्थः युगपत् समकालं प्राप्तेभ्यः युगपत् प्राप्त्या महत्कार्यम् अनुमीयत इति भावः युगबाहुभ्यः दीर्घबाहुभ्य इत्यर्थः आजानुबाहुत्वं भाग्यलक्षणम् वः युष्मभ्यं बहुवचनस्य वस्मसौ इति वसादेशः कर्मणायमभिप्रैतीत्यत्र कर्मपदेन क्रियाग्रहणात् सम्प्रदानत्वम् स्वागतम् शोभनम् आगमनम् काकुरत्र अनुसन्धेया
किमिदम् द्युतिमात्मीयाम् न बिभ्रति यथा पुरा हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः
किमिति वत्साः इत्युत्तरश्लोकीय सम्बोधनम् अत्रापि अनुसञ्जनीयम् हे वत्साः पुत्रकाः हिमेन नीहारेण क्लिष्टप्रकाशानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव दीप्तिताराहुताशेषु ज्योतिः इति शाश्वतः वः युष्माकम् मुखानि पुरा यथा पूर्वम् इव आत्मीयाम् द्युतिम् न बिभ्रति इदम् किम् किन्निबन्धनमित्यर्थः किमिदमित्यनेन वाक्यार्थः परामृश्यते उक्तमेव प्रपञ्चयति सप्तभिः श्लोकैः
प्रशमादर्चिषामेतत् अनुद्गीर्णसुरायुधम् वृत्रस्य हन्तुः कुलिशम् कुण्ठिताश्रीव लक्ष्यते
प्रशमादिति अर्चिषाम् तेजसाम् प्रशमात् निर्माणात् अनुद्गीर्ण सुरायुधम् अनुदितचित्रप्रभमित्यर्थः एतत् वृत्रस्य हन्तुः इन्द्रस्य कुलिशम् वज्रम् कुण्ठिता आश्रयो यस्य तत् कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते
किञ्चायमरिदुर्वारः पाणौपाशः प्रचेतसः मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः
किञ्चेति किञ्च अयम् अरिदुर्वारः रिपुदुष्प्रधर्षः प्रचेतसः वरुणस्य प्रचेता वरुणः पाशी इत्यमरः पाणौ पाशः रज्जुः आयुधविशेषः मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः फणिनः सर्पस्य दैन्यम् शोच्यत्वम् आश्रितः अत्र फणिनिष्ठदैन्यस्य पाशे असम्भवात् दैन्यमिव दैन्यमिति कल्पनात् असम्भवद्वस्तुसम्बन्धो निदर्शनालङ्कारः
बेरस्य मनःशल्यम् शंसतीव पराभवम् अपविद्धगदो बाहुः भग्नशाख इवद्रुमः।
कुबेरस्येति अपविद्धा त्यक्ता गदा येन सह अपविद्धगदः अत एव भग्नशाखः द्रुमः इव स्थितः कुबेरस्य बाहुः मनःशल्यम्। दुःखहेतुत्वात् मनसः शल्यप्रायत्वम् इत्यर्थः। पराभवम् शत्रुकृतमिति शेषः। शंसतीव कथयतीव लक्षणया अनुमापयतीत्यर्थः। बाहौ मुख्यकथनस्य असम्भवात् इव शब्दोऽप्यत एव।
यमोऽपि विलिखन् भूमिम् दण्डेनास्तमितद्विषा कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम्।
यम इति अस्तम् नाशम् इताः प्राप्ताः। अस्तमिति मकारान्तम् अव्ययम्। तस्य द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति समासः। अस्तमिताः त्विषः यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिम् विलिखन् अमोघेऽपि प्रागिति भावः। अस्मिन् दण्डे निर्वाणालातस्य शान्तोल्मुखस्य। अलातम् नाम भूलेखन शलाका तस्य यल्लाघवम् क्लैब्यम् तत्कुरुते। अलातमुल्मुखम् ज्ञेयम् इति हलायुधः। निर्वाणो वाते इति निपातनात् निष्ठानत्वम्। अत्रापि लाघवमिव लाघवमिति कल्पनात् निदर्शनालङ्कारः।
अमी च कथमादित्याः प्रतापक्षतिशीतलाः चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्।
अमी इति प्रतापक्षत्या तेजसाम् क्षयेण शीतलाः अमी आदित्याश्च द्वादशेति शेषः। कथम् केन हेतुना इत्यर्थः। चित्रन्यस्ताः चित्रलिखिताः इव प्रकामम् अत्यन्तम् आलोकनीयताम् दृश्यताम् गताः प्राप्ताः।
पर्याकुलत्वात् मरुताम् वेगभङ्गोऽनुमीयते अम्भसाम् ओघसंरोधः प्रतीपगमनादिव।
पर्याकुलेति मरुताम् वायूनाम् सप्तसत्तानामिति शेषः। पर्याकुलत्वात् स्खलितगतित्वाद्धेतोः वेगस्य भङ्गः अम्भसाम् जलानाम् प्रतीपगमनात् उत्तानावरोहादित्यर्थः। ओघस्य संरोधः प्रवाहप्रतिबन्ध इव अनुमीयते।